ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति 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 श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी सर्वेभ्यो नमः अस्माकं वर्गे सर्वेषां स्वागतम् अत्र तत्र हलन्तपदानां विभक्तिरूपाणां अभ्यासः परिचयः इति अस्माकं प्रवर्तमानः विषयः तत्र गतवर्गे तत्र कथाम् आरम्भं कृतवन्तः किन्तु तस्य पूर्वं तत्र इदानीं तत्र लक्ष्मी भगिनी तत्र भवान् शब्दस्य रूपाणि उक्तवती तादृश किञ्चित् अभ्यासं सरल अभ्यासं कृत्वा तदनन्तरं तत्र गीतासोपाने तत्र या कथा अस्ति ताम् अनुसरामः तत्र नरेश महोदय तत्र आत्मन् इति पदस्य रूपाणि एकवारं वदति वा महोदय
आत्मा आत्मनौ आत्मनः
आत्मानः आत्मानः प्रथमविभक्तौ
आत्मना द्वितीयविभक्ति आत्मानम् आत्मानौ आत्मनः
इदानीम् आत्मनः
आत्मना आत्मनाम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम्
आत्मनोः इदानीं षष्टि अतः आत्मनोः
षष्टि
अथवा पञ्चमी वदन् अस्ति वा महोदय
आत्मनः आत्मनोः आत्मनाम्
आत्मनाम् समीचीनम्
आत्मनि आत्मनोः आत्मसु
आत्मसु समीचीनं महोदय अस्तु शुभदा भगिनी तत्र राजन् इति शब्दस्य रूपाणि एकवारं वदति वा भगिनि
आं महोदय एकनिमिष राजा राजानौ राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी राजनी राज्ञोः राजसु राजन् राजानौ राजानः
समीचीनं भगिनि अतः तत्र राज्ञा इति आगच्छति अतः तत्र यदा वयम् अभ्यासपुस्तकम् इति तादृश पुस्तकं पाठयामः तत्र किं कुर्मः राजा इति पदं त्यक्त्वा महाराजः इति स्वीकुर्मः महाराज तु अकारान्तपदम् अस्ति राजा नकारान्तपदम् अस्ति अतः यत्र यत्र राजा अस्ति तत्र महाराजः इति वदामश्चेत् सौकर्यं भवति किन्तु राज्ञः तत्र महाराजस्य इति वक्तुं शक्नुमः किन्तु राजा अस्ति चेत् राज्ञः एव षष्टिविभक्तिरूपं भवति अतः महाराजा भवति चेत् रूपं सुलभं राजा भवति चेत् रूपं क्लिष्टम् अस्तु गीताञ्जलि भगिनि इदानीं तत्र नकारान्त गुणिन् शब्दः
आं महोदय गुणिन् गुणिन् तु नकारान्त अपि अस्ति गुणी गुणिनौ गुणिनः गुणिं
गुणिनं
गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः गुणिने गुणिभ्यां गुणिभ्यः गुणिनः गुणिभ्यां गुणिभ्यः गुणिनः गुणिनोः क्षम्यतां गुणिनोः गुणिनां गुणिनि गुणिनोः गुणिषु.
हा तावदेव. तत्र पेटर्न् इति वदामश्चेत् स्वरूपं कीदृशं भवति चेत् तत्र राजा मध्ये तु तत्र किञ्चित् भेदः अस्ति, किन्तु तत्र रूपं भवान् शब्दस्य रूपं कीदृशं भवति, भवान् एकवचने भवान् भवन्तं तदनन्तरं भवता भवते भवतः भवतः भवति इति रूपं खलु. तादृश एव तत्र गुणी तदनन्तरं गुणिनं तदनन्तरं तु गुणिना गुणिने गुणिनः गुणिनः गुणिनि. अतः तत्र भवान् शब्दं यदि स्मरामश्चेत् रूपस्य किञ्चित् अवज्ञानं भवति एव एकवचने. इदानीं द्विवचने किं कष्टमस्ति वा? द्विवचने
द्विवचने तु सर्वे
सर्वत्र सौकर्यम् अस्ति खलु. तत्र त्रिवारं भवद्भ्यां 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 भवति, अतः गुणिभ्यां गुणिभ्यां गुणिभ्यां, तदनन्तरं भवतोः भवतोः अस्ति, तत्र गुणिनोः गुणिनोः. इदानीं तत्र अतः तत्र एकवचने किं कर्तव्यं? भवान् शब्दं स्मर्तव्यं. तत्र भवता तृतीया विभक्ति, भवते चतुर्थी, पञ्चमी षष्टी च किं भवति?
भवतः भवतः.
तदनन्तरं सप्तमी अस्ति भवति
भवति.
अतः तत्र आकारः एकारः विसर्गः विसर्गः तदनन्तरम् इकारः. द्विवचने भ्यां 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 नोः नोः अथवा ओहो ओहो इति भवति.
ओहो ओहो.
तदनन्तरं किं भवति बहुवचने? किं भवति तत्र तृतीया मध्ये? भिः, चतुर्थी,
भवद्भिः, भवद्भ्यः, भवद्भ्यः,
षष्ठी,
षष्ठी
ताम् इति अस्ति, भवताम् इति अस्ति, भवतां, किन्तु गुणिनाम् अपि भवति, अतः नाम अथवा ताम् इति भवति. तत्र भवत् शब्दस्य तकारान्त अस्ति, भवताम् अस्ति, गुणिन् शब्दस्य गुणिन् अस्ति, गुणिनाम् इति भवति. तदनन्तरं भवत्सु अस्ति, अत्र गुणिषु, सकारः वा षकारः, तावदेव. रघुवीरानन्दस्वामी नमस्कारः महोदय.
हरिः ओं महोदय.
सुप्रभातं. चिन्ता मास्तु महोदय, चिन्ता मास्तु. अस्तु तर्हि तत्र एतावत् केवलं तत्र पुल्लिङ्गनकारान्तपुल्लिङ्गशब्दानाम् अभ्यासः, नकारान्त वा तकारान्त तद् कुर्वन् स्मः. तत्र इदानीं सकारान्तः इति न कृतवन्तः एतावत्. भवान् वक्तुमिच्छति वा रघुवीरानन्दस्वामी? तत्र विद्वस् इति स्वरूपमहोदयस्य करपत्रे एतद् अस्ति, तत्र ईमेल् द्वारा यत् प्रेषितं तत्र लिङ्क् अस्ति महोदय. द्वितीयपुटे तत्र सकारान्त विद्वस् पदमस्ति
महोदय. भवतः
तद् भवतः प्रथमपुटे अस्ति भवान् शब्दः. तत्र ईमेल् मध्ये तत्र सर्वदा तत्र गृहपाठ रेकार्डिङ्ग् शृणोतु, तदनन्तरम् आत्मन् शब्दस्य इति लिङ्क् तत्र भवति महोदय. क्लिष्टः अस्ति चेत् त्यजामः, चिन्ता मास्तु. पुनः प्राप्तवान् वा महोदय?
आं महोदय. महोदय किं पठनीयम् इदानीं महोदय?
तत्र केवलं विद्वान् इति, विद्वान् विद्वस् पदस्य रूपाणि.
विद्वान् भवान् आत्मा
अग्रिमपुटे.
आं महोदय. सकारान्त विद्वस् पदं
प्र केवलं विद्वान् विद्वांसो विद्वांसः इति तादृश वदतु तावदेव
विद्वान् विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः विदुषा विद्वद्भ्यां विद्वद्भिः विदुषे विद्वद्भ्यां विद्वद्भ्यः विदुषः विद्वद्भ्यां विद्वद्भ्यः विदुषः विदुषोः विदुषां विदुषि विदुषोः विद्वत्सु.
हा समीचीनं महोदय, धन्यवादः. तत्र तत्र प्रथम एकवचने किं भवति, तृतीयतः सप्तमीपर्यन्तं विदुषा विदुषे विदुषः विदुषः विदुषि भवता भवते भवतः भवतः भवति समानरूपं खलु महोदय?
आं महोदय, सकारस्य स्थाने शकारः भवति,
शकारः भवति. तदनन्तरं द्विवचने किं भवति, तत्र विद्वद्भ्यां 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 विदुषोः विदुषोः भवद्भ्यां 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 भवतोः भवतोः. तदनन्तरं बहुवचने भवद्भिः विद्वद्भिः भवद्भ्यः विद्वद्भ्यः भवद्भ्यः विद्वद्भ्यः भवतां विदुषां भवत्सु विद्वत्सु इति.
ओ,
अतः तत्र तत्र साम्यम् अस्ति. तत्र शकारः सकारः ण्यकारः आगच्छति, किन्तु तत्र किं पूर्णतया यदि न स्मरामः किञ्चित् ज्ञानं तु भवेत् यदि भवान् शब्दस्य रूपं मनसि स्थापयामः. अस्तु तर्हि अग्रे गच्छामः. समीचीनम् अस्ति, एतादृश अभ्यासं प्रतिवारं कुर्मः इति इच्छा अस्ति, किन्तु सर्वदा न कुर्मः. अस्तु तर्हि पुनः सत्यजितः कथां तत्र गच्छामः. गतवर्गे तत्र प्रथमपरिच्छेद पठितवन्तः इति मन्ये. तत्र सर्वे स्मरन्ति खलु, तत्र कथा अपि अस्ति खलु सर्वेषां पार्श्वे, सत्यजितः कथा. तत्र अटाच्मेण्ट् मध्ये तत्र पञ्चमाध्यायः धीरस्तत्र न मुह्यति इति. अस्तु, तत्र लक्ष्मी भगिनी पुनः एकवारं तत्र प्रथमपरिच्छेद एकवारं पठतु भगिनि. विवरणं मास्तु, केवलम् एकवारं पठतु, ततः पुनस्मरणं भवति इति कृत्वा तावदेव.
अध्यक्षः, सर्वेभ्यः नमः. महत्यां विपति समागतायाम् आत्मनः प्राणान् ऋणीकृत्य सहितः जले निमज्जन्तौ बालकौ रक्षितवन्तः सत्यजितः. सम्माननाय वयम् अस्यां संसदि समागताः स्मः. अयं धीरः बालकः
पठतु पठतु भगिनि, तत्र श्रोष्यामः इति तावत् पर्यन्तम्.
अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारान् प्राप्तवान् अस्ति. एतत् अस्माकं सर्वेषाम्
अभिमानास्पदम्
अस्ति. एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसिद्धं भविष्यति. प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः.
हा, तावत् पर्यन्तं समीचीनं भगिनि. अस्तु, सर्वे स्मरन्ति खलु, तत्र सत्यजित् किं कृतवान्, सः द्वौ बालकौ रक्षितवान् प्राणरक्षणं, बालयोः प्राणरक्षणं कृतवान्. कुत्र, तत्र नद्यां निम्मजतोः बालयोः प्राणरक्षणं कृतवान् सत्यजित्. तादृशसत्यजितः सम्माननसमारम्भं भवति, तत्र एतावत् अध्यक्षः तत्र किं कृतवान् तत्र आरम्भे तत्र किं किम् अस्ति इति तत्र उक्तवान्, तस्य परिचयं सत्यजितः परिचयम् अपि कृतवान्। इदानीं तत्र प्रवृत्तां घटनां, या घटना प्रवृत्ता नाम प्राणरक्षणस्य घटना, तां घटनाम् अध्यक्षः किं वदति, प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः इति। तत्र श्रोष्यामः इति क्रियापदं, कर्तृपदं किम् अस्ति,
वयं,
वयं, हा तत्र कोऽपि क्लेशः नास्ति खलु, वयम् इदानीं श्रोष्यामः। अतः तत्र किं श्रोष्यामः,
प्रवृत्तां घटनां,
हा तदस्ति कर्मपदं, प्रवृत्तां घटनां वयं, वयं प्रवृत्तां घटनाम् इदानीं श्रोष्यामः। तत्र कस्मात् श्रोष्यामः, मुखात्, मुखात्
सत्यजितः मुखात्,
सत्यजितः मुखात् वयं श्रोष्यामः इति, समीचीनम्। अतः वयम् इति प्रथमविभक्तिः अस्ति, प्रवृत्तां घटनाम् इति तत्र विभक्तिका कर्मपदं द्वितीया, हा अपि मुखात् इति पञ्चमी, सत्यजितः इति षष्टि, समीचीनं, हा षष्टि। तदनन्तरम् एव तु अव्ययम्, इदानीमपि अव्ययम्, अतः तावदेव अस्ति। अस्तु समीचीनं, वयम् इदानीं प्रवृत्तां घटनां सत्यजितः मुखात् एव श्रोष्यामः इति भवति।
महोदय, यदि सत्यजितः पञ्चमी अस्ति चेत् तद् अपि समीचीनं महोदय।
न न, किन्तु कस्य मुखात् इति भवति खलु भगिनी प्रश्नः।
हा तत्तु सत्यं, कस्य मुखात्, किन्तु विशेषणविशेष्यभावः अस्ति चेत्
तत्र सत्यजितः तु, सत्यजितः तु रूपं दृष्ट्वा तत्र पञ्चमी वा षष्टि भवितुम् अर्हति, सत्यं भगिनि। अतः रूपं दृष्ट्वा तावदेव वयं वक्तुं शक्नुमः पञ्चमी वा षष्टि वा इति। तदनन्तरं वाक्यं दृष्ट्वा तस्य अर्थः कः इति, सन्दर्भानुसारं पञ्चमी वा षष्टि वा इति निर्णयं करणीयं खलु अस्माभिः।
अत्र वाक्ये यदि सत्यजितः तु समान एव पञ्चमी वा षष्टि रूपं न महोदय, अत्र पञ्चमी अपि भवितुम् अर्हति न महोदय, सत्य विशेषणविशेष्यभाव सत्यजितः मुखात्।
अस्तु सत्यजित्, सत्यजित् तत्र अस्तु, तत्र अस्तु, अस्तु, वदतु महोदय, नरेश् महोदय,
लिङ्गभेदः अस्ति,
लिङ्गभेदः अस्ति, हा लिङ्गभेदः एकम् अस्ति, द्वितीयम् अस्ति तत्र द्वितीयांश, तत्र तु अर्थभेदः भवति खलु। इदानीं तत्र सत्यजित् तु पुल्लिङ्गे अस्ति, मुखम् इति नपुंसकलिङ्गे अस्ति इति मन्ये, लिङ्गभेदः अस्ति, अन्यत् तस्य मुखात् इति, तस्य मुखात् इति अर्थः समीचीनमस्ति खलु। तत्र विशेषणम् इत्युक्ते तत्र सर्व कस्य इति प्रश्नः, तत्र मम गृहम् इति तत्र मम तु विशेषणं न भवति खलु,
खलु
भवत्याः गृहम् इति, तत्र भवत्याः तु पञ्चमी वा षष्टि वा, किन्तु भवत्याः गृहम् अस्ति चेत् तत् षष्टि एव, अतः कस्य मुखात्, तस्य मुखात् एव, पुनः तत्र एव अपि अस्ति इत्युक्ते तत्र अन्य कोऽपि तस्मिन् विषये न वदति, सः एव वदति इति खलु। हा समीचीनं वा तत्र, अतः षष्टि एव तत्र, अस्तु इदानीम् अग्रे गच्छामः, तत्र तस्मिन् विषये इदानीं सत्यजितः वचनं शृणुमः। नरेश् महोदय अग्रे पठति वा।
आं महोदय, सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः,
मम नमस्काराः। तत्र सर्वेषां विदुषाम् इति विभक्ति का तत्र
षष्टिविभक्ति
विदुषाम् इति इदानीमेव वयं दृष्टवन्तः खलु श्रुतवन्तः रघुवीरानन्दस्वामी उक्तवान् तत्र विदुषः विदुषोः विदुषाम् इति तत्र षष्टि तत्र मम नमस्काराः इति चरणकमलयोः इति तत्र विभक्ति का
सप्तमे विभक्ति द्विवचनं
हा तत्र सप्तमविभक्ति द्विवचनं भवति रूपं दृष्ट्वा षष्टि वा सप्तमी वा किन्तु अत्र कुत्र मम नमस्काराः भवन्ति तत्र अर्पयामि इत्युक्ते तयोः अतयोः हा तयोः अथवा तेषां तेषां सर्वेषां विदुषां चरणकमलयोः मध्ये मम नमस्काराः समर्पयामि इति हा अस्तु अग्रे महोदय
तस्मिन् दिने विरामः आसीत्
हा
तस्मिन् दिने सप्तमी विभक्ति
अपि विरामः तत्र दिनम् इति भवति इति मन्ये खलु दिनम् इति नपुंसकलिङ्गे अस्ति इति मन्ये अतः तद्दिनं तस्य सप्तमी तस्मिन् दिने
विरामः आसीत्
हा विरामः इत्युक्ते तत्र पाठः नासीत् पाठशालायां हा
अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गृहतः गच्छन् आसम्
हा इदानीं तत्र पश्यामः तत्र आसम् इति क्रियापदम् आसम् इति क्रियापदं तस्य कर्तृपदं तु अहम् एव अहम् आसम् अहं किम् आसम्
गच्छन् आसम्
अहं गच्छन् आसम् समीचीनम् इदानीं तत्र कुतः गच्छन्
स्वगृहतः
स्वगृहतः स्वगृहतः इति पञ्चमी हा
पञ्चमी
किमर्थं
दर्शनाय
कस्य दर्शनाय
सुहृदां दर्शनाय
सुहृदां दर्शनाय स्वगृहतः अहं गच्छन् आसम् अन्यत् किमपि अस्ति वा कर्तुम् अहं
क्रीडितुं
क्रीडितुं हा क्रीडितुम् अपि सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम् क्रीडितुं तु तुमुन् रूपम् अस्ति सुहृदाम् इति तत्र विभक्तिका
सुहृदां षष्टिविभक्ति
षष्टि बहुवचनं हा तत्र सुहृद् सुहृदः सुहृदोः सुहृदाम् इति तत्र षष्टि दर्शनाय तु
चतुर्थी
दर्शनार्थं तत्र दर्शनाय वा दर्शनार्थम् इति वक्तुं शक्नुमः दर्शनार्थं स्वगृहतः गच्छन् आसम् हा अग्रे महोदय
सरितः तीरेण गच्छतः मम मनसि कञ्चित् कालं सरिति तरामि सरितः तीरेण सरितः षष्टिविभक्ति तीरेण तीरेण गच्छतः
हा अत्र एतत् कुर्मः महोदय तत्र तत्र किं कुर्मः तत्र हा इति तत्र किमपि विचारः उत्पन्नः तत् वाक्यं त्यजामः इदानीं प्रथमतया मम मनसि किमपि विचारः उत्पन्नः इति स्वीकुर्मः हा तत्र उत्पन्नः विचारः उत्पन्नः तत्र क्रियापदं न दत्तमस्ति आसीत् इति स्थापयामः तत्र विचारः उत्पन्नः आसीत् उत्पन्नः विशेषणं भवति विचारः विचारपदस्य विचारः कुत्र उत्पन्नः
मनसि
मनसि कस्य मनसि
मम मनसि
मम मनसि अहं किं कुर्वन् अस्मि तस्मिन् समये
गच्छतः
न पूर्व गच्छतः मम इति अस्ति तत्र गच्छतः मम इति तस्य मम इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति
अहम्
अहम् गच्छतः इति पदस्य प्रथमविभक्तिरूपं
गच्छन्।
हा, अहं गच्छन् अस्मि, मम मनसि, अहं यः गच्छन् अस्मि मम मनसि, अतः गच्छतः मम मनसि। अहं गच्छन् अस्मि अथवा अहं गच्छन् आसम्, गच्छतः मम मनसि विचारः उत्पन्नः आसीत्, आसीत्। तत्र कुत्र गच्छतः मम, कुत्र गच्छन् आसम् अहं?
सरितः तीरेण।
हा, सरितः तीरेण, तत्र तीरस्य पार्श्वे, तत्र सरितः तीरेण अहं गच्छन् आसम्, अतः सरितः तीरेण गच्छन् आसम् तादृशः मम मनसि, अतः सरितः तीरेण गच्छतः मम मनसि विचारः, किमपि विचारः उत्पन्नः इति। हा, समीचीनं महोदय। इदानीं तत्र
भगिनी अग्रे गच्छतः प्रत्ययः महोदय,
तत्र गच्छन् शत्रन्तरूपं, गच्छन् अहम्, अहं गच्छन् अस्मि, अहं गच्छन् अस्मि इदानीं तत्र, अथवा एतत् स्वीकरोतु भगिनि, तत्र रामः गच्छन् अस्ति, इदानीम् अहं रामं पश्यामि, अस्तु, अहं रामं पश्यामि, रामः गच्छन् अस्ति, गच्छन् इति किं भवति रामपदस्य
सम्बन्धः?
रामः गच्छन्
पुंलिङ्गम् एकवचन,
हा, किन्तु पुल्लिङ्ग एकवचनपदम् अस्ति गच्छन् इति, किन्तु पुल्लिङ्गपदम् अस्ति, एकवचने अस्ति, किन्तु सम्बन्धः कः? रामः अपि गच्छन् इति तयोः मध्ये कः सम्बन्धः, कीदृशः रामः इत्युक्ते गच्छन् रामः,
गच्छन् रामः, गच्छन्
उत्तमः रामः अस्ति, गच्छन् रामः अस्ति, गच्छन् रामः अस्ति। इदानीम् उत्तमः रामः अस्ति चेत् अहं रामं पश्यामि चेत् किं भवति उत्तमपदस्य? अहम् उत्तमः रामः अस्ति, इदानीम् अहं रामं पश्यामि इति वक्तुम् इच्छामि, किन्तु तत्र रामम् इति पदस्य पूर्वं किं भवति? उत्तमः रामः अस्ति,
अहम् उत्तमं रामं
पश्यामि इति रूपं। हा, समीचीनं भगिनि, किन्तु किमर्थम् एतादृशरूपं भवती उक्तवती? रामम् इति अस्ति, किन्तु किमर्थम् उत्तमम् इति उक्तवती भवती?
विशेषणविशेष्यभावः
अस्ति, तत्र नियमः कः? यल्लिङ्गं यत्वचनं, हा, अतः तत्र रामम् इति तत्र द्वितीयविभक्ति, द्वितीयविभक्तौ अस्ति, अतः उत्तमः पदमपि द्वितीयविभक्तौ भवेत् खलु? उत्तमं रामं पश्यामि। इदानीं रामः गच्छन् अस्ति, अतः इदानीम् अहं रामं पश्यामि, तत्र गच्छन् किं भवति? गच्छन् इति प्रथमविभक्तिरूपम् अस्ति, किन्तु प्रातिपदिकं किम् अस्ति तत्र? तत्र गच्छन् इति पुल्लिङ्गे रूपं, गच्छन् इति पुल्लिङ्गरूपं, स्त्रीलिङ्गे किं भवति?
गच्छन्ति,
गच्छन्ति,
दीर्घ,
गच्छन्ति, गच्छन्ति महिला, अपि तत्र नपुंसकलिङ्गे गच्छत्,
गच्छत्,
हा, गच्छत् इति प्रातिपदिकं, तकारान्त भवत् शब्दवत् तकारान्तपदं, गच्छन् इति प्रथमविभक्तिरूपं, भवान् द्वितीयविभक्तिरूपं किं भवति? भवन्तम्। गच्छन् इति पदस्य द्वितीयविभक्तिरूपं किं भवति एकवचने? भवान् भवन्तं गच्छन्तम्। इदानीं रामः गच्छन् अस्ति, अहं गच्छन्तं रामं पश्यामि, गच्छता रामेण, गच्छता रामेण सह लक्ष्मणः अपि गच्छति, गच्छते रामाय नमः इति, हा, तादृशरूपं भवति, अतः तादृश अत्र अहं गच्छन् अस्मि अथवा अहं गच्छन् आसम्। इदानीं तत्र अहं पदस्य षष्टिविभक्तिरूपम् अस्ति मम, अतः गच्छन् पदस्य षष्टिविभक्तिरूपमपि करणीयं खलु? अतः गच्छन् पदस्य षष्टिविभक्तिरूपं किमस्ति? भवान् पदस्य भवतः षष्टि, गच्छन् पदस्य षष्टि
गच्छतः,
हा अतः गच्छतः मम इति। अहं गच्छन्
षष्टि अस्ति,
हा सत्यं भगिनि, अहं गच्छन् अस्मि, तत्र तस्य षष्टिरूपं भवति गच्छतः मम इति। गच्छन् अहम् अस्मि, गच्छतः मम इति। समीचीनं वा भगिनि?
आं महोदय,
समीचीन। मनसि इति नरेश् महोदय विभक्तिका
सप्तमी,
सप्तमी, हा मनसि, मनः मनसि मनांसि, किन्तु एतत् मनसि इकारान्त इकारः दृष्ट्वा सप्तमी इति वक्तुं शक्नुमः। समीचीनं महोदय, अस्तु इदानीम् अग्रे शुभदा भगिनि,
तत्र
कञ्चित् कालम् इति,
कञ्चित् कालं सरिति तरामि, सरिति इति सरित् शब्दस्य सप्तमी एकवचन,
एकवचनरूपं, समीचीनं, तत्र सरिति तरामि, अहं
तरामि,
अहं कञ्चित् इति तत्र कं योगः
चित्,
कश्चित् इति यादृशमस्ति तादृशमेव, किन्तु नपुंसकलिङ्गे अस्ति अत्र, कालम् इति नपुंसकलिङ्गे अस्ति, अतः
विशेषणविशेष्य कालं शब्दस्य विशेषणं,
विशेषणं कञ्चित्, कञ्चित् कालं सरिति तरामि इति विचारः उत्पन्नः। तदनन्तरं
सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः,
तदनन्तरं सुहृदां दर्शनाय, तत्तु पूर्वमेव आसीत् खलु, सुहृदाम् इति षष्टि, दर्शनाय इति चतुर्थि, गच्छामि इति विचारः उत्पन्नः, अग्रे अग्रे
तरणार्थम् उद्युक्तः अहं किञ्चिदग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्।
भगिनि एतत् कुर्मः, तत्र तादृश एव तत्र भवती कुत्र कूर्दितवान् तावत्पर्यन्तम् एकवारं पठतु भगिनि, तदनन्तरं किञ्चित् पश्यामः पङ्क्तिशः।
अस्तु महोदय, अहं परितः अवलोकितवान् परन्तु न कोऽपि तत्र आसीत्, पुनरपि सरिति दृष्टिं प्रसारितवान्, अहं किञ्चिदग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान्, निमेषं यावत् स्तब्धः अभवम्, ततः सरितः गभीरतां, विपदः कठिनताम्, आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्।
हा तावत् पर्यन्तम्, अस्तु इदानीं पश्यामः भगिनि, तरणार्थम् इति तत्र अन्यत् रूपं किं वक्तुं शक्नुमः, तत्र विभक्तिरणाय, चतुर्थी एकवचन, तरुणाय उद्युक्तः, उद्युक्तः तरुणाय उद्युक्तः इति पदं किं भवति?
अहं शब्दस्य विशेषणं, विशेषणानि भवति,
समीचीनं भगिनि,
किञ्चित् योगः अग्रे, अग्रे इति सप्तमी एकवचन भवति, कस्यचित् तरोः इति तरुशब्दस्य षष्ठी एकवचन, तरोः अध इति अव्ययं, कानिचन वस्त्राणि दृष्टवान्, कानिचन वस्त्राणि इति वस्त्रं शब्दस्य नपुंसकलिङ्गि शब्दस्य द्वितीया बहुवचन कर्मपदमस्ति, अतः द्वितीया बहुवचनस्ति. कानिचन वस्त्राणि दृष्टवान्, कानिचन इति विशेषणं, वस्त्राणि इति विशेष्य, कानिचन वस्त्राणि दृष्टवान्. अहं दृष्टवान्, अहम् इति कर्तृपदं भवति, कानिचन वस्त्राणि कर्मपदं भवति.
समीचीनं. तदनन्तरं कुत्र इत्युक्ते तरोः अधः दृष्टवान्.
अहं पठामि
वा?
अहं परितः अवलोकितवान्. इदम् इदानीं किमपि नास्ति महोदय.
अहम् अवलोकितवान् इत्युक्ते अहं परितः अवलोकितवान् इत्युक्ते
अपश्यत्
दृष्टवान् अथवा दृष्टवान् सर्वत्र दृष्टवान् सर्वासु दिक्षु अहं दृष्टवान् इति.
परितः इति अव्ययम्. परन्तु तत्र परन्तु न कोऽपि तत्र आसीत्, कोऽपि तत्र न भवति इति.
तत्र समीचीनं. परन्तु तत्र कोऽपि न
आसीत्. पुनरपि सरिति दृष्टिं प्रसारितवान्, अहं किञ्चिदग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान्. पुनरपि सरिति दृष्टिं, सरिति इति सरित् शब्दस्य सप्तमी एकवचन. दृष्टिं प्रसारितवान्, दृष्टिम् इति द्वितीया एकवचन, प्रसारितवान् अहं.
तावत् तावत्पर्यन्तम् अहम् इदानीं तत्र पश्यामः. अहं दृष्टिं प्रसारितवान्. दृष्टिं प्रसारितवान् इत्युक्ते
अहम् अवलोकितवान्.
तावदेव. अन्यत् समानं समानं. किन्तु दृष्टिं प्रसारितवान्, तत्र दृष्टिं कर्मपदं प्रसारितवान् कुत्र, किन्तु अत्र प्रसारितवान् इत्युक्ते कुत्र दृष्टवान् इति अर्थे तत्र कुत्र प्रसारितवान्. अतः उत्तरं भवति सरिति दृष्टिं प्रसारितवान् अहम्. अग्रे
किञ्चिदग्रे सरितः प्रवाहे मज्जन्तौ, सरितः इति षष्टि एकवचन. सरितः प्रवाहे, प्रवाहे इति प्रवाह
अकारान्तपदम् इति प्रवाहः इति मन्ये.
सप्तमी एकवचन. मज्जन्तौ बालकौ, मज्जन्तौ बालकौ इति कर्मपद, बालकौ कर्मपदं भवति. द्वे बालकौ, अतः मज्जन्तौ, मज्जन्तौ इति द्विवचन, नाट्
द्विवचन, द्वितीया विभक्ति.
द्विवचन, द्वितीया विभक्ति. बालकौ शब्दस्य मज्जन्तौ इति विशेषणं, बालकौ विशेष्य दृष्टवान्.
समीचीनं भगिनि. अग्रे
निमेषं यावत् स्तब्धः.
अतः तत्र सरितः प्रवाहे, तत्र सरित् अस्ति, किन्तु सरित् कीदृशः सरित् अस्ति तत्र, कीदृशी सरित् अस्ति तत्र?
प्रवाही.
तत्र तत्र जलं शीघ्रतया गच्छति तत्र सरिति. जलं मन्दे मन्दं मन्दं न गच्छति, किन्तु शीघ्रतया गच्छति इति कृत्वा तत्र प्रवाहः अस्ति इति दत्तमस्ति. तत्र प्रवाहे मज्जन्तौ, तत्र ते तौ बालकौ, तत्र किं तरतौ बालकौ इति वक्तुं न शक्नुमः, मज्जन्तौ बालकौ तौ. अग्रे भगिनि.
निमेषं निमेषं यावत् स्तब्धः अभवम्.
निमेषं यावत्, यावत् इति अस्ति चेत् तत्र कालसूचक, तत्र यावत्, तत्र एकघण्टां यावत् तादृशरूपं भवति. तत्र निमेषं यावत् सः स्तब्धः अभवत्. स्तब्धः इत्युक्ते किं करणीयं, तत्र किमपि तत्र अचलः आसीत्, स्तब्धः, तत्र स्टुपिफैड् इति. स्तब्धः अभवम्.
ततः सरितः गभीरतां, विपदः कठिनतां, आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्।
हा, इदानीं तत्र एकं लघु वाक्यमस्ति, तत्र अहं सरिति कूर्दितवान्। तत्तु सरलम् अस्ति खलु, अहं कूर्दितवान् कुत्र?
सरिति।
सरिति, हा, किन्तु तस्य पूर्वं किम् अस्ति तत्र? ततः, ततः अत्र अस्ति तदनन्तरं, तत्र स्तब्धः केवलम् एकं निमिषं यावत् स्तब्धः आसम्, किन्तु तदनन्तरम् अहं सरिति कूर्दितवान्, अहं कूर्दितवान्। किन्तु कीदृशं, कीदृशौ परिस्थितौ अथवा कीदृश्यां परिस्थित्याम् अहम् एतत् कृतवान् इति प्रश्ने किं भवति? सरितः गभीरताम्। गभीरताम् इत्युक्ते किं? गभीरता, गभीरता किं भवति?
गभीरता,
तत्र हा गभीरता इत्युक्ते तत्र जलस्य परिमाणं किं भवति इति, अल्पं जलम् अस्ति चेत् तत्र गभीरा, तत्र गभीरा लघ्वी अस्ति इति वक्तुं शक्नुमः। किन्तु यदि बहु जलम् अस्ति चेत् तत्र गभीरा अधिका भवति। गभीरा अधिका अस्ति चेदेव तत्र मज्जनं भवितुम् अर्हति। तत्र तावत् जलं नास्ति चेत् तत्र आपद् न भवति, किन्तु तत्र बहु किमपि जलम् अस्ति चेत् प्रवाहः अस्ति, अतः तत्र विपद् अस्ति। अतः गभीरतां, सरितः गभीरताम्। अग्रे
विपदः कठिनताम्। विपदः इति अगेन् षष्ठी एकवचन, विपद् शब्दस्य षष्ठी एकवचन, कठिनताम् इति आत्मनः दौर्बल्यम्, आत्मनः इति षष्ठी एकवचन अगेन्, दौर्बल्यं दुर्बलता,
दौर्बल्यम् इति तत्र दौर्बल्यम् इति तस्य भावः, अहं किमपि न कर्तुं शक्नोमि इति तस्य भावः दौर्बल्यम्। तत्र सौन्दर्यम् इति, सुन्दरः सौन्दर्यम् अथवा सुन्दरता, सुन्दरत्वम् इति रूपाणि सन्ति, तत्र दौर्बल्यम् इति, दुर्बलता अथवा दौर्बल्यम्, आत्मनः दौर्बल्यम्। भाववाचकः भगिनि, तत्र सौन्दर्यम् इति रूपं, हा सौन्दर्यम् इति यादृशरूपम् अस्ति तत्र, हा अग्रे आयति तत्र किं कः प्रत्ययः इति सर्वं, किन्तु तत्र दुर्बल, तत्र अहं दुर्बलः अस्मि इति तादृश तस्य भावः दौर्बल्यं भावः। अत्र शुभदा भगिनी, तत्र एषः सत्यजित् किं कृतवान् तत्र? कठिनतां, गभीरतां, दौर्बल्यम् इति सर्वं विस्मृत्य इति, तदस्ति मुख्यांशः अत्र। विस्मृत्य इत्युक्ते तत्र न तस्य स्मरणमेव नास्ति। स्मरणम् इत्युक्ते गभीरतां जानाति, गभीरतां पश्यति, किन्तु गभीरा तत्र सरित् गभीरा अस्ति इति सः न चिन्तयति। विपद् कठिना अस्ति इति न चिन्तयति। स्वस्य दौर्बल्यस्य विषये अपि न चिन्तयति। सर्वं विस्मृत्य न सरितः गभीरतां, विपदः कठिनताम्, आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्। यः तत्र अन्य कोऽपि आसीत् चेत्, यः यदि सः गभीरतां वा कठिनतां वा दौर्बल्यं वा यदि स्मृतवान् अथवा स्मृतवती, सः अथवा सा तत्र न गच्छति एव खलु। किन्तु एषः सर्वं विस्मृत्य कूर्दितवान्। अस्तु अग्रे, समीचीनं भगिनि। अस्तु अग्रे गीताञ्जलि भगिनी, अग्रे पठति वा?
आं महोदय, प्रयत्नं करोमि. शीघ्रं
शीघ्रं तीर्त्वा तत्र ततः तत्र आहूतवान्, अग्रिमपुटे आहूतवान् पर्यन्तं पठतु भगिनि.
अस्तु. शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान्, तथा अपरं बालकम् आत्मनः कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्. यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत्. विनष्टः आसीत्. जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान्. अस्तु महोदय. शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान्. शिरसि तु कर्तृपदं, शिरसि गृहीतवान्. अहं शिरसि गृहीतवान् इति
शीघ्रं तीर्त्वा
एकं बालकं शिरसि गृहीतवान्. गृहीतवान् तु एकं बालकं द्वितीयविभक्ति.
बालकस्य शरीरस्य भागाः सन्ति खलु, अवयवाः.
किं भागं गृहीतवान्?
नियमः अस्ति तत्र, हस्तं गृहीतवान् इति तदपि वक्तुं शक्नुमः, किन्तु हस्ते अपि तदपि साधु इति, अतः शिरसि गृहीतवान् इति रूपम् अस्ति.
सप्तमी साधु शिरसि गृहीतवान्.
शिरसि
सकारान्त शिरस्
मनसि मनस् मनसि शिरस् शिरसि सकारान्त
नपुंसकलिङ्गं. शीघ्रं तीर्त्वा इत्युक्ते शीघ्रं त्वान्तरूपं शीघ्रं
तरामीति पदस्य त्वान्तरूपं तीर्त्वा.
त्वान्तरूपं तीर्त्वा
शीघ्रं न
शीघ्रं तु
अव्ययम्
अस्तु. तदनन्तरं तथा अपरं बालकम् आत्मनः स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्. अहम् आगतवान् प्रथमं तु लघुवाक्यम्. अहम् आगतवान्, कुत्र आगतवान्, सरितः तीरम् आगतवान्, कथमपि.
अस्तु, तत्र किं कुर्मः भगिनि, तत्र अस्तु, तत्र प्रथमतया तथा तत्र एकं बालकं शिरसि गृहीतवान्, तदनन्तरम् अपरं बालकम् अस्ति, तत्र बालकौ द्वौ स्तः खलु.
द्वौ अस्ति. अपरम् इत्युक्ते
अन्यः बालकः यः अस्ति, तं बालकम्, अपरं बालकम् आत्मनः स्कन्दे इत्युक्ते आत्मनः इति पदस्य अन्यत् रूपं, सुलभं रूपं किम् अस्ति? केवलम् अक्षरद्वयम् अस्ति. आत्मनः इति पदस्य अन्यत् समानार्थकपदम् अक्षरद्वयपदं भवती जानाति, आत्मनः इति षष्ठी अस्ति.
आत्मनः
मम हा मम तावदेव हा मम स्कन्धे हा मम स्कन्धे
मम स्कन्धे इत्युक्ते शरीरस्य भागम् अपि अस्ति स्कन्धे मम स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य हा अस्तु तु संहृत्य अपि ल्यप्
संहृत्य संहरणं संहृत्य
संहरणं हा संहृत्य किं संहृत्य शक्तिं संहृत्य कीदृशशक्तिं समग्रां शक्तिं
संहृत्य हा सर्वं तत्र समग्रां
पूर्णतया
हा पूर्णतया पूर्णतया समृद्धिः इति पूर्णतया समग्रां शक्तिम् इति अस्ति तत्र प्रथमविभक्तिरूपं किं भवति समग्राम् अस्ति चेत् आकारं
किन्तु शक्तिः तु स्त्रीलिङ्गपदं न महोदय
सत्यं सत्यम् अतः एव समग्रा शक्तिः
समग्रा शक्तिः प्रथम
विभक्तिरूपं
हा विभक्तिरूपम् अत्र तु समग्रां शक्तिं द्वितीय
संहृत्य हा इदानीं द्वितीयविभक्ति किमर्थं संहृत्य अहं तस्य संहरणं कृत्वा तस्य सर्वं एकत्र कृत्वा उपयुज्य पूर्णां शक्तिं समग्रां शक्तिं संहृत्य एकत्र कृत्वा तस्य उपयोगं कृत्वा
अहं कथमपि सरितः तीरम् आगतवान्
द्वौ बालकौ सह अस्ति चेत् तृतीया भवति अतः रामाभ्यां बालकाभ्याम् इति द्वाभ्यां बालकाभ्यां
सह सरितः तीरम् आगतवान्
अहं सरितः तीरम् आगतवान् कथमपि अहं सरितः तीरम् आगतवान् समीचीनं
कथमपि अपि कथमपि अपि अव्ययपदम् अत्र तदनन्तरं यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत् अस्तु बोधः विनष्टः आसीत्
इत्युक्ते तत्र मम चिन्तनम् अहं किं कुर्वन् अस्मि इति तत्र तस्य मम ज्ञानं नास्ति मम प्रज्ञा तत्र प्रज्ञा इति यद्वदामः तत्र प्रेसेन्स् इति अहं किं कुर्वन् अस्मि इति तादृशः बोधः विनष्टः आसीत् इत्युक्ते अहं न जानामि अहं किं कुर्वन् अस्मि इति बोधः विनष्टः आसीत्
बोधः विनष्टः आसीत् कस्य बोधः मम बोधः विनष्टः आसीत्
कस्मिन् समये
यावत् तीरं प्राप्नवन् इत्युक्ते
तत्र एषः तीर्त्वा बालकौ द्वौ गृहीत्वा पुनः सरितः तीरम् आगतवान् एषः तावत्पर्यन्तम् एतस्य बोधः विनष्टः आसीत् इत्युक्ते सः सत्यजित् न जानाति तस्य सत्यजितः ज्ञानं नास्ति सः किं कुर्वन् अस्ति इति सः एतत् सर्वं कृतवान् किन्तु तस्य ज्ञानं नास्ति एतत् कुर्वन् अस्मि इति, किन्तु तत् कृतवान् इति. तत्र यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत्. तत्र प्राप्नवम् इति रूपं किम् अस्ति? तत्र कीदृश क्रियापदं किम् अस्ति तत्र?
आसीत्
प्राप्नवं, तीरं प्राप्नवम् इति. तत्र तीरं
यदि अस्तु
तीरं दूरम् अस्ति,
अकर्मक
न न न तीरम् अस्ति, तीरम् अस्ति. तत्र सः तीरं यदि इदानीं सः तरति, तरित्वा तीर्त्वा सः किं किं वदामः? सः तीर्त्वा तीरं, कोऽपि नदी अस्ति, नद्यां सः तरति, तीर्त्वा सः किं करोति? अन्यत् तीरं यत् अस्ति तीरं
प्राप्नोति,
प्राप्नोति. इदानीं तत्र प्राप्नोति इति कीदृशक्रियापदम्? उपसर्ग अस्ति वा तत्र?
उपसर्ग अस्ति,
प्रयोगः आप्नोति इति, प्रयोगः आप्नोति. इदानीम् आप्नोति इति पदस्य लङ् लकारः किं भवति? आप्नवम् इति भवति.
आप्नवम् अस्तु,
किन्तु नियमः कः? लङ् लकारः अथवा लकारस्य विषये नियमः कः? यदि उपसर्ग अस्ति चेत्
प्रथमं तु उपसर्ग, तदनन्तरम् अ, तदनन्तरं धातुरूपम्.
हा, अतः आप्नवं तस्य पूर्वं
प्रयोग अयोगः आप्नवम्.
तत्र अ मध्ये किमर्थं केवलं तत्र तत्र अ इति किमपि नास्ति, तत्र केवलम् उपसर्ग अस्ति चेत् प्रथमतया लकारस्य समये किं करणीयम्? उपसर्गं विस्मरतु, लकारं करोतु, उपसर्गरहितधातोः लकारं रूपं स्वीकरोतु, तदनन्तरं पुनः उपसर्गं स्थापयतु इति. अतः प्रयोगः आप्नोति इति अस्ति. आप्नोति इति पदस्य इदानीं तत्र आप्नोति इति इदानीं तत्र तद्रूपं नावश्यकं खलु? तत्र आप्नोति इति तु तत्र प्रथमपुरुषरूपम् अस्ति, किन्तु अत्र किम्? आप्नोमि इति, आप्नोमि इति तस्य पदस्य, हा, आप्नोमि इति पदस्य लङ्लकारः, तत्तु आप्नवम् इति अस्ति. तदनन्तरं प्र इति, प्रयोगः आप्नवं भवति, प्राप्नवम्, प्राप्नवम्, हा, तीरं प्राप्नवम्, अहं प्राप्नवं, यावत् तीरं प्राप्नवं. तत्र प्राप्नवम् इति क्रियासूचकं, तस्य कर्तृपदं तु अहमेव, अतः अहं प्राप्नवम्. तीरमस्ति कर्मपदं, समीचीनं भगिनि, तीरमस्ति कर्मपदं. तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत्. इत्युक्ते तत्र प्रायशः तस्य बोधः किञ्चित् आसीत्. यदि सः नद्यां तत्र नद्याम् अथवा सरिति कूर्दितवान्, तस्मिन् समये प्रायशः तस्य किञ्चित् ज्ञानम् आसीत् अथवा बोधः आसीत्, किन्तु यदा सः तीरं प्राप्तं
किन्तु तदनन्तरमेव किमपि विस्मरामि, सर्वमेव
गतवान्, सर्वं विस्मृतवान्, किन्तु तत्र किं कुर्वन् अस्मि इति तस्य पूर्ण ज्ञानं तस्य विनष्टं भवति. तदनन्तरं सः किं करोति? इदानीं सः तीरं प्राप्तवान् अस्ति इदानीं. हा, सः सत्यजित्, हा, वदतु भगिनि.
बोधः विनष्टः आसीत् इत्युक्ते सः मूर्छितः अभवत्?
न न न मूर्छितः न मूर्छितः न, केवलं तस्य अहं किं कुर्वन् अस्मि इति ज्ञानं नास्ति भगिनि, तावदेव. अस्तु अग्रिमे वाक्ये पश्यामः सः मूर्छितः नास्ति इति. हा
जागरितः जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान्. अहम् आहूतवान् सर्वान् आहूतवान् जागरितः इत्युक्ते
तत्र जागरितः इति कीदृशपदमस्ति? जागरितः अपि अहं
विशेषणविशेष्येन जागरितः अहं कीदृश अहं जागरितः अहम्.
अस्तु शुभदा भगिनी, प्रायशः तत्र यत् भवती उक्तवती प्रायशः तद् अत्र भवितुम् अर्हति भगिनि, क्षम्यताम्. समीचीनं भगिनि, अतः तत्र प्रायशः तस्य बोधः विनष्टः इत्युक्ते तदनन्तरं सः जागृतः अभवत् अभवत्. समीचीनं भगिनि, सत्यं 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 तत्र अतः तत्र तस्य विनष्टः आसीत् इत्युक्ते तत्र सः मूर्छितः अभवत्.
विनष्टः मूर्छित अहं न जानामि, किन्तु लैक् आफ् प्रेजेन्स् न महोदय.
तदपि तत्र मम बोधः विनष्टः इति तद् प्रायशः अन्कान्शियस् अपि इति वक्तुं शक्नुमः, यतोहि तत्र जागरितः इति अस्ति. जागरितः इत्युक्ते तत्र
अन्कान्शियस् तु न महोदय,
अन्कान्शियस् न, किन्तु तत्र प्रायशः
केवलं प्रेसेन्स् आफ् मैण्ड् नास्ति तत्र
इति प्रायशः इति मम चिन्तनमपि अस्ति, किन्तु तत्र किञ्चित् क्लेशः अस्ति. अस्तु
जागरितः इत्युक्ते यदा अहं बोधः
तत्र
पुनः पुनः प्राप्नोमि
बोधं प्राप्नोमि इति, किन्तु तत् किम् अस्ति तादृश अस्तु तत्र डेज्ड् स्टेट् अथवा अन्कान्शियस् स्टेट् किमपि इति वदामः. अस्तु अस्तु भगिनि, तत्र तादृशी परिस्थितिः अत्र अस्ति. तदनन्तरं सः जागरितः भवति, तदनन्तरं जागरितः अहम्
उच्चैः तु अव्ययपदम् उच्चैः आकृष्य आकृष्य इत्युक्ते
किम् आकृष्य इति कोऽपि वदति वा? तत्र आकृष्य इति तु तत्र उपसर्गः अस्ति खलु,
रोदनं.
किम् उक्तवती लक्ष्मी भगिनी?
क्रन्दनं. किन्तु क्रन्दनं तु आहूतवान् उच्चैः आहूतवान्
न न न आकृष्य सर्वान् आहूतवान् अस्ति तत्र सर्वान् आहूतवान् किं भवति? अहं पदस्य विशेषणम् अहम् आहूतवान् कान् आहूतवान् सर्वान् आहूतवान् किं कृत्वा सर्वान् आहूतवान् आकृष्य
आकृष्य इत्युक्ते किं महोदय?
पुनः लक्ष्मी भगिनी वदतु आकृष्य इत्युक्ते
क्रन्दनं
क्रन्दनं क्रै इति प्रायशः. उच्चैः उच्चैः आकृष्य इति अस्ति उच्चैः आकृष्य आकृष्य शौट् इति उच्चैः आकृष्य सर्वान् आहूतवान् इति. समीचीनम्. इदानीं रघुवीरानन्दस्वामी अग्रे पठति वा?
महोदय, सत्यजितः महोदय
तत्र तत्र अग्रिमपुटे तत्र एतावत् तत्र सर्वान् आहूतवान् इति अस्ति, तावत् वयं पठितवन्तः. इदानीं ये विपदि पतिताः भवन्ति इति तत्र पेज् 26 मध्ये अस्ति महोदय तत्र.
आं महोदय, तत्रैव ये विपदि पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव.
तत्र तत्र नरेन्द्रमहोदय तावत्पर्यन्तं पठतु महोदय.
आं महोदय, अत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः. धन्यवादः अध्यक्षः. इदानीं सत्यजितः सम्माननं करोति अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः.
इदानीं ये विपदि
पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव. विपदि सप्तमी महोदय.
विपद् शब्दस्य विपदि. अग्रे
तत्र आपदः काठिन्यं
महोदय महोदय तत्र न अत्र एव तत्र कीदृशवाक्यम् अस्ति तत्र ये विपदि पतिताः भवन्ति ते केऽपि वा भवन्तु रक्षणीयाः एव इति तत्र तत्र किं किम् अस्ति तत्र ये विपदि पतिताः भवन्ति तत्र भवन्ति इति क्रियापदं
महोदय
पतिताः इति अस्ति तत्र पतिताः कीदृशपदं तत्र
विशेषणम्
अस्तु कस्य पदस्य विशेषणं
ये
पतिताः भवन्ति विपदि पतिताः भवन्ति समीचीनम्. इदानीं तत्र अग्रिमभागः अस्ति ते पतिताः विपदि पतिताः फालन् इति पतति पतितः आपतितम् इत्युक्ते फालन् आन् अस् इति, किन्तु एषः पतितः अस्ति ही हेस् फालन् इति अर्थः. अत्र पतितः पतिताः यः पतितः यौ पतितौ ये पतिताः इति अते तदनन्तरं महोदय ते केऽपि वा भवन्तु रक्षणीयाः एव इति तत्र रक्षणीयाः इति पदमपि विशेषणमस्ति कस्य पदस्य ते रक्षणीयाः एव. तत्र केऽपि वा भवन्तु इति किमर्थं दत्तमस्ति, किमर्थं कोऽपि वा भवन्तु इति नास्ति, कोऽपि वा भवति इति
रक्षणीयाः भवन्ति इति पदं बहुवचनमस्ति महोदय.
अतः तत्र ते रक्षणीयाः एव, ते केऽपि वा भवन्तु इति सः कोऽपि अथवा ते केऽपि यः कोऽपि अथवा ये केऽपि ये केऽपि ते केऽपि इति तत्र ते केऽपि वा भवन्तु रक्षणीयाः एव. अपि तत्र वाक्यं यः सः अथवा ये ते इति तादृशरूपमस्ति तत्र वाक्यस्य. अस्तु अग्रे महोदय. इदानीं
तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः
तत्र
तर्हि पश्चात् दुःखम् अनुभोक्तव्यम्
भवति इति
मम विश्वासः.
मम विश्वासः इदानीं कीदृशः अस्ति यदि
आपदः काठिन्यं पश्यामः चेत्
तत्र कोऽपि विपदि पतितः केऽपि विपदि पतिताः सन्ति तस्मिन् समये यदि वयम् आपदः काठिन्यं चिन्तयामः अथवा
आत्मनः हितं
चिन्तयामः यदि आपदः काठिन्यं वा आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् किं भवति?
दुःखम् अनुभोक्तव्यम्।
हा, दुःखम् अनुभोक्तव्यं भवति इति तत्र अनुभोक्तव्यं भवति, तत्र वयं दुःखितः भवामः, तत्र अहं वयं तत्र साहाय्यं न कृतवन्तः इति तत्र दुःखितः भवामः इति तस्य विश्वासः, अतः एव सः तत्र गतवान् इति सः विवरणं करोति। हा, किमर्थं सः तत्र गतवान्? किं महोदय?
एतत् साधुपुरुषः।
हा, सत्यं सत्यं, हा सत्यं महोदय। हा, अग्रे।
आपदः काठिन्यम् इति चिन्तयित्वा ऊहा कृत्वा एव जनाः न कुर्वन्ति।
सत्यं,
कठिनमस्ति वा
अथवा काठिन्यम् इति चिन्तयित्वा, काठिन्यं यत्र काठिन्यं नास्ति तत्रापि काठिन्यम् इति कल्पनां कृत्वा साहाय्यं न कुर्वन् अपि सन्ति। हा, तदपि भवति खलु। अग्रे महोदय, अध्यक्ष।
इदानीं सत्यजितः सम्माननं करोति अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयस्य।
महोदयः, अस्तु, तत्र तत्र कर्तृपदं क्रियापदं किमस्ति महोदय? अत्र
सम्माननं,
सम्माननम् इति कर्मपदं, क्रियापदं?
क्रियापदं महोदय नरेन्द्रमहोदयः।
न, क्रियापदं, क्रियापदं समीचीनं, कर्तृपदं नरेन्द्रमहोदय, समीचीनं महोदय।
क्रियापदं तु सम्माननं करोति न?
करोति, करोति इति क्रियापदं, सम्माननम् इति कर्मपदं। हा, समीचीनम्। इदानीं तत्र नरेन्द्रमहोदयः कर्तृपदं, कीदृशनरेन्द्रमहोदयः?
भिषजां प्रमुखः नरेन्द्रः महोदयः।
हा, प्रमुखः, प्रमुखः, सः प्रमुखः अस्ति। प्रमुखः इति तत्र अस्ति चेत् तत्र भिषजां प्रमुखः, भिषजां, भिषज्, भिषज् पदं, भिषज् इति पदं,
भिषजौ भिषजः,
भिषक्, भिषक्, हा, भिषजौ भिषजः, समीचीनं महोदय। हा, तत्र इदानीं तत्र अस्ति भिषजाम् इति, भिषाझाम् अस्ति चेत् तत्र कीदृशी विभक्ति?
षष्ठी महोदय।
हा, समीचीनम्। एषः प्रमुखः अस्ति चेत् वयं, अथवा एषः प्रमुखः अस्ति चेत् वयं पृच्छामः केषां प्रमुखः अथवा केषां प्रमुखा एषा अस्ति इति। हा, अतः तत्र भिषजां प्रमुखः नरेन्द्रमहोदयः। कुत्र सन्ति ये
कीदृशभिषक् इत्युक्ते? क्षम्यताम्,
भिषक्
वैद्यः,
वैद्यः,
वैद्यः।
तत्र प्रसिद्धः श्लोकः अस्ति भगिनी, भिषजां भवरोगिणां कुरवे सर्वलोकानाम् इति। हा, तत्र भिषजे भवरोगिणाम् इति। हा, तद् तत्र भिषज् वैद्यः।
रुद्रमपि अस्ति।
हा, अस्तु, सत्यं महोदय। हा, अतः भिषजाम् इति षष्ठी बहुवचनं। तत्र पूर्वं किमस्ति? नगरस्य, नगरस्य भिषजाम्, अस्य नगरस्य भिषजां प्रमुखः, अस्य नगर, अत्र एतद् नगरम्, एतस्मिन् नगरे, तत्र अथवा अस्मिन् नगरे अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः। सः किं करोति? सम्माननं करोति। कस्य सम्माननं?
सत्यजितः।
हा, सत्यजितः सम्माननं करोति इति, समीचीनं महोदय। हा, धन्यवादः
महोदय।
हा, वदतु महोदय।
सत्यजित् अतः सत्यजितः इति षष्ठी महोदय।
हा, सत्यं, हा, सत्यं। तत्र मरुत् शब्दवत् इति चिन्तयामि, सत्यजित् सत्यजितौ सत्यजितः, मरुत् शब्दस्य षष्टि अस्ति मरुतः, मरुतोः मरुतां सत्यजितः इति मरुतः इति. अभिजित् किं किम् उक्तवान् महोदय?
तदेव सत्यजित् तकारान्तम् तर्हि अभिजित् अपि
तकारान्तमेव. सत्यं महोदय, सत्यं तादृशे पदमेव हलन्तपदं, हलन्तपदं तकारान्तपदम्. अस्तु, इदानीं तत्र अग्रे लक्ष्मी भगिनी अन्तिमपरिच्छेदः पठति वा भगिनि?
इदानीं सत्यजितः सम्मानम् करोति अस्य नगरस्य विषजां प्रमुखः नरेन्द्रमहोदयः.
तत् पठितवन्तः. इदानीम् अग्रे नरेन्द्रः.
सत्यजितः मुखात् एव सर्वं वयं श्रुतवन्तः. कस्यापि जनस्य महत्त्वं वाचः माधुर्येण सम्पदः राशिना वा न अपि तु कर्मणा प्रभावेण एव सिद्ध्यति.
पूर्वं पूर्वं पठतु, पूर्णं पठतु भगिनि, तत्र धन्यवादः पर्यन्तं पठतु तत्र.
विवेकिनः, प्रतिभाशालिनः, गुणिनः अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु. धन्यवादः.
इदानीं सत्यजितः मुखात् एव
सर्वं वयं
श्रुतवन्तः. तत्र कर्तृपदं किं?
वयं
श्रुतवन्तः, वयं श्रुतवन्तः.
तत्र सत्यजितः मुखात्,
तत्र सर्वम् इत्युक्ते या घटना अभवत् तस्याः विषये वयं सर्वं श्रुतवन्तः. या घटना प्रवृत्ता आसीत् तस्याः प्रवृत्तायाः घटनायाः विषये वयं सर्वं श्रुतवन्तः. तस्य मुखात् एव, तस्य एतस्य सत्यजितः मुखात् एव, मुखात् एव सर्वं. एकवचनं, समीचीनं. मुखात् एव पञ्चमी, समीचीनं. इदानीम् अग्रे
कस्यापि जनस्य महत्त्वं वाचः.
इदानीं तत्र इदानीं तत्र कस्यापि जनस्य महत्त्वं तत्र सिद्ध्यति इति अन्ते तत्र सिद्ध्यति इति अस्ति खलु, सिद्ध्यति. महत्त्वं सिद्ध्यति, महत्त्वं सिद्ध्यति. किं सिद्ध्यति? महत्त्वं सिद्ध्यति. कस्य महत्त्वं सिद्ध्यति? किन्तु तत्र कस्य महत्त्वं सिद्ध्यति? कस्यापि जनस्य. कोऽपि जनः, तस्य षष्टि किं भवति? कोऽपि जनः कस्यापि जनस्य. कोऽपि पुरुषः अस्ति, कोऽपि बालकः अस्ति, तस्य बालकस्य इति वक्तुम् इच्छामश्चेत् तत्र किं भवति? कस्यापि बालकस्य. तत्र कापि महिला अस्ति चेत् तत्र किं भवति? षष्टि कस्याः अपि महिलायाः इति. तादृश अत्र कस्यापि जनस्य, कोऽपि जनः, कोऽपि भवतु पुरुषः वा कोऽपि भवतु, कोऽपि जनः तस्य. अतः कस्यापि जनस्य महत्त्वं सिद्ध्यति. केन सिद्ध्यति तत्र इति इदानीं पश्यामः. तत्र वाचः इति, वाचः इति पदं कीदृशपदं? वाचः चकारान्तस्त्रीलिङ्गपदं. तदपि अस्ति, वाचः प्रथमाविभक्ति अथवा द्वितीयाविभक्ति बहुवचनरूपं वाचः इति अस्ति. वाच् शब्दस्य तदपि भवति मरति. अन्यत् अथवा पञ्चमी वा षष्ठी वा अत्र किम् अस्ति अत्र किं किम् अस्ति वाचः माधुर्येण इति अस्ति अस्तु भगिनि एतत् कुर्मः तत्र अस्तु तत्र अन्ततया एव आगच्छामः एव सिद्ध्यति तत्र प्रभावेण सिद्ध्यति इति कर्मणः प्रभावेण एव सिद्ध्यति कर्मणः इति विभक्ति का तत्र कर्मणः प्रभावेन प्रभावेण सिद्ध्यति इति हा प्रभावेण इति तत्र रेपः अस्ति तदनन्तरं पवर्गीय अस्ति तदनन्तरं यारालाभः अस्ति अतः णत्वं भवति इति कृत्वा प्रभावेण इति भवति प्रभावेण एव सिद्ध्यति कर्मणः प्रभावेण एव सिद्ध्यति तत्र कर्मणः प्रभावेण इति कर्मणः प्रभावेण इति अग्रे पश्यामः किम् अस्ति इति किन्तु तस्य पूर्वं किं किम् अस्ति इति पश्यामः तत्र माधुर्येण इति अस्ति तृतीयविभक्तौ माधुर्येण अथवा अन्यत् तृतीयविभक्तिपदं किम् अस्ति तदनन्तरं
राशिना
राशिना राशि तत्र राशिना इति अस्ति राशिना इति कीदृशपदम् अस्ति
राशिना
हा समीचीनमेव तत्र प्रायशः तत्र राशिना इति अस्ति तदपि तृतीयविभक्तिरूपं तदनन्तरं प्रभावेण इति अस्ति अतः तत्र कर्मणः प्रभावेण इति रूपं दृष्ट्वा षष्टि तदनन्तरं तृतीया इति दृष्ट्वा वाचः माधुर्येण इति तत्र वाचः इति पदस्य विभक्ति का तत्र भगिनि एतत् कुर्मः तत्र प्रभावेण इति भवति चेत् वयं किं पृच्छामः कस्य प्रभावेण इति खलु अतः माधुर्येण माधुर्येण इति अस्ति कस्य माधुर्येण सिद्ध्यति वाचः माधुर्येण अतः वाचः विभक्ति अस्ति षष्टि वाचः माधुर्येण सम्पदः राशिना वा सम्पदः अपि षष्टि सम्पदः राशिना वा न सिद्ध्यति कस्यापि जनस्य महत्त्वं वाचः माधुर्येण न सिद्ध्यति कस्यापि जनस्य महत्त्वं सम्पदः राशिना न सिद्ध्यति किन्तु इदानीं वाक्यं कस्यापि जनस्य महत्त्वं कर्मणः प्रभावेन एव सिद्ध्यति वाचः माधुर्येण तत्र वाचः माधुर्येण वाक् मधुरा भवतु किन्तु तेन किं महत्त्वं सिद्ध्यति वा न अथवा तया माधुर्यम् इति प्रायशः माधुर्येण इति अस्ति ततः तेन इति एव भवति तत्र तेन महत्त्वं न सिद्ध्यति सम्पदः राशिना तत्र सम्पद् अधिका अस्ति चेदपि तत्र तेन किम् इति कृत्वा तत्र महत्त्वं नास्ति किन्तु कर्मणः प्रभावेण राशि इत्युक्ते बहु किमपि अस्ति इति राशि इति तत्र किं जलराशिः इति वदामः जलराशि इत्युक्ते तत्र बहु किमपि अस्ति इति शाखायाः राशिः अस्ति यदि तत्र इदानीं प्रायशः एतत् कठिनमस्ति द्रष्टुं किन्तु शाखायाः राशिः तत्र यदि विपणं गच्छामः तत्र राशि सर्वं राशौ एव भवति खलु राशि इति अवगतं वा भगिनि लक्ष्मी भगिनि
नक्षत्रं
न तद् ग्रूप् अस्ति ग्रूप् इति भगिनि तत्र बहु किमपि अस्ति हीप् इति अर्थः
क्वाण्टिटि मेबि
क्वाण्टिटि
क्वाण्टिटि इति तु तत्र केवलं क्वाण्टिटि क्वालिटि इति तत्र हीप्
पैल्
अथवा हीप् हा तादृश अर्थे
पैल् ओर् कीप् आफ्
हा इति राशिः भवति राशिः तत्र सम्पदः राशिः सर्वे तत्र चलनचित्रे दर्शयन्ति खलु तत्र सम्पदः राशिः चलनचित्रे एतत् तस्य प्रदर्शनं भवति तत् चिन्तयतु तावदेव सम्पदः राशिः सम्पदः राशिना न सिद्ध्यति महत्त्वं किन्तु कर्मणः प्रभावेण इत्युक्ते यत् कुर्मः यत् तत्र आक्षन् डिक्टेट्स् इति यद् वदामः तद् तत्र कर्मणः प्रभावेण एव महत्त्वं सिद्ध्यति इति तदनन्तरं विवेकिनः तत्र विभक्ति का
विवेकिनः प्रथमविभक्ति बहुवचनं
विवेकिनः अस्तु प्रतिभाशालिनः गुणिनः
अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु
हा इदानीम् आदर्शः भवतु आदर्शः भवतु अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु इति अस्ति चरितम् आदर्शः भवतु अस्य बालस्य अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु कीदृशः सर्वेषां
विवेकिनः प्रतिभाशालिनः गुणिनः
हा गुणिनः सर्वेषां सर्वेषां विवेकिनः सर्वेषां प्रतिभाशालिनः सर्वेषां गुणिनः तेषां सर्वेषाम् अस्य बालस्य चरितम् आदर्शः भवतु इति अतः तत्र षष्ठी बहुवचनं हा तेषाम् आदर्शः एतस्य बालस्य चरितं भवतु इति नरेन्द्र महोदय तत्र बिषजां प्रमुखः सः उक्त्वा तत्र कार्यक्रमं समापयति अस्तु तावदेव वदतु भगिनि एकनिमिष गीताञ्जलि भगिनि एकनिमिष भगिनि शुभदा भगिनि वदतु
विवेकिनः प्रतिभाशालिनः गुणिनः इति षष्ठी एकवचन एकवचनम्
इति मम चिन्तनं भगिनि तत्र विवेकिनः
बालस्य शब्दस्य विशेषणानि प्रायशः
न विशेषणानि न तत्र विशेषणं न तत्र तेषां तत्र लेट् दिस् बि एन् इलस्ट्रेशन् फार् धेम् इति तत्र तादृश लेट् दिस् बि एन् एक्साम्पल् फार् धेम् इति गुणिनः तत्र बालस्य तु विशेषणं न भवति यतोहि तत्र बालस्य तु एकवचने अस्ति विवेकिनः तु बहुवचने अस्ति
विवेकिनः गुणिनः इति एकवचनः
न धन्यवादः मम दोषः एव एकनिमिषः समीचीनं भगिनि समीचीनं धन्यवादः अस्तु सत्यं विवेकी सत्यं तत्र विवेकिनः प्रतिभाशालिनः गुणिनः क्षम्यतां मम दोषः सत्यं भगिनि शुभदा भगिनि धन्यवादः बालस्य विशेषणम् अस्ति एषः बालकः विवेकी प्रतिभाशाली अपि गुणी अतः सत्यं भगिनि धन्यवादः अतः मम भ्रमः आसीत् सर्वेषाम् इति दृष्ट्वा सत्यं इदानीं समीचीनम् अस्ति धन्यवादः एषः बालः विवेकी प्रतिभाशाली गुणी अस्ति अतः अस्य बालस्य कीदृशबालस्य विवेकिनः प्रतिभाशालिनः गुणिनः अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु धन्यवादः भगिनि इदानीं तत्र दोषः नास्ति सत्यं धन्यवादः भगिनि अस्तु धन्यवादः अस्तु इदानीं तत्र रघुवीरानन्दमहोदय अन्ते तत्र शान्ति
महोदय
वदतु भगिनि
महोदय अत्र एतस्य पूर्वस्मिन् वाक्ये महोदय अपि इति पदमे कस्यापि जनस्य महत्त्वं वाचः माधुर्येण सम्पदः राशिना वा न अपि तु अत्र तु किन्तु अस्ति न महोदय किमर्थम्
तत्र अपि इत्युक्ते तत्र प्रदर्शनार्थं तत्र किं वदामः टु
अपि इत्युक्ते आल्सो किन्तु
तत्र परन्तु एव अर्थे किन्तु एव किन्तु अपि तु अपि तु तद् किन्तु परन्तु अर्थे एव भवति तत्र
ओ अपि तु अपि किन्तु समान
अपि तु एतद् नास्ति अपि तु एतद् अस्ति इति अर्थे तत्र किन्तु इति केवलं भट् इति अस्ति खलु भट् अथवा हवबर् इति अस्ति तत्र अपि तु इत्युक्ते एतद् नास्ति अपि तु एतद् अस्ति इति तत्र समूहं दृष्ट्वा एतद् नास्ति एतद् नास्ति अपि तु एतद् अस्ति एतत् सम्यक् अस्ति इति तत्र अत्र तत्र प्रथमः अस्ति वाचः माधुर्येण द्वितीयः अस्ति सम्पदः राशिना तृतीयः अस्ति कर्मणः प्रभावेण अतः तत्र वाचः माधुर्येण न सम्पदः राशिना न अपि तु कर्मणः प्रभावेण इति एतदेव समीचीनम् इति
आल्सो इति तु अर्थः नास्ति किन्तु अपि तु इत्युक्ते यदि समूहस्य
तत्र अत्र एतदेव समीचीनम् अस्ति इति अर्थे एतद् नास्ति एतद् नास्ति अपि तु एतद् अस्ति अपि इत्युक्ते एतावत् यत् उक्तवन्तः तत्र किमपि समीचीनं नास्ति यत् इदानीं वदामः तदेव समीचीनम् अस्ति इति
अपि तु सर्वदा अपि तु एव इति अर्थः यदि
अत्र अत्र एतादृशः अर्थः एतादृशः अर्थः केवलमपि अस्ति चेत् आल्सो इति किन्तु अत्र अपि तु इत्युक्ते तत्र एतदेव अत्र पूर्वं न एतदेव समीचीनम् अस्ति इति केवलम् एतद् समीचीनम् अस्ति इति अस्तु धन्यवादः भगिनि अस्तु रघुवीरन्दस्वामी तत्र शान्तिमन्त्रं वदति वा समापयामः
महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः धन्यवादः सर्वेभ्यो नमः धन्यवादः नमस्कारः